श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि देवो न शुभमातनोतु दशधा निर्वर्तयन् भूमिकां रङ्गे धामनिलब्धनिर्भररसैः अध्यक्षितोर्भावुकैः यद्भावेषु पृथग्विधेष्वनुगुणान् भावान् स्वयं बिभ्रति यद्धर्मैरिह धर्मिणी विहरते नानाकृतिर्नायिका निर्मग्नश्रुतिजालमार्गणदशा दत्तक्षणैर्वीक्षणैः अन्तस्तन्वदिवारविन्दगहनानि औदन्वतीनामपां निष्प्रत्यूहतरङ्गरिङ्गणमिथः प्रत्यूढपाथश्चटा डोलारोह सदोहलं भगवतो मात्स्यं वपुः पातु नः अव्यासुर्भुवनत्रयी मणिभृतं कण्डूयनैरद्रिणा निद्राणस्य परस्य कूर्मवपुषो निःश्वासवातोर्मयः यद्विक्षेपणसंस्कृतो दधिपयः प्रेखोलपर्यङ्किका नित्यारोहणनिर्वृतो विहरते देवः सहैव श्रिया गोपायेदनिशं जगन्ति कुहना पोत्री पवित्रीकृत ब्रह्माण्डः प्रलयोर्विघोषगुरुभिः घोणारवैर्घुर्घुरैः यद्रमष्ट्राङ्गुरकोटिगाढघटना निष्कम्पनित्यस्थितिः ब्रह्मस्तम्भमसौदसौ भगवती मुस्तेव विश्वम्भरा प्रत्यादिष्टपुरातनप्रहरण ग्रामः क्षणम् पाणिजैः अव्यात्रीणि जगन्त्यकुण्ठमहिमा वैकुण्ठकण्ठीरवः यत्प्रादुर्भवनादवन्ध्यजठरा यादृच्छिकाद्वेधसां या काचित् सहसा महासुरगृह स्थूणा पितामह्यभूत् व्रीडाविद्धवदान्यदानवयशो नासीरधाटी भटः त्रैयक्षं मकुटं पुनन्नवतु नः त्रैविक्रमो विक्रमः यत्प्रस्तावसमुच्छ्रितध्वजपटी वृत्तान्तसिद्धान्तिभिः श्रोतोभिः सुरसिन्धुरष्टसुदिशा सौधेषु दोधूयते क्रोधाग्निं जमदग्निपीडनभवं सन्तर्पयिष्यन् क्रमात् अक्षत्रामिह सन्ततक्षय इमां त्रिसप्त कृत्वाक्षितिं दत्त्वा कर्मणि दक्षिणां क्वचनताम् आस्कन्द्य सिन्धुं वसन् अब्रह्मण्यमहाकरोतु भगवान् आब्रह्मकीटं मुनिः पारावारपयो विशोषणकला पारेण कालानल ज्वालाजालविहारहारिविशिख व्यापारघोरक्रमः सर्वावस्थसकृत्प्रपन्नजनता संरक्षणैकव्रती धर्मो विग्रहवानधर्मविरतिं धन्वी सतन्वीतनः फक्कत्कौरवपट्टनप्रभृतयः प्रास्तं प्रलम्बादयः तालाङ्कस्य तथा विधा विधृतयः तन्वन्तु भद्राणि नः क्षीरं शर्करयेव याभिरपृथग् भूता प्रभूतैर्गुणैः आकौमारकमस्वदन्त जगते कृष्णस्य ताह्येलयः नाथायैव नमः पदं भवतु नः चित्रैश्चरित्रक्रमैः भूयोभिर्भुवनान्यमूनि कुहना गोपाय गोपायते कालिन्दीरसिकाय कालियफणि स्फारस्फटावाटिका रङ्गोत्सङ्गविषङ्गचक्रमधुरा पर्याय चर्यायते भाविन्या दशया भवन्निह भवध्वंसायनः कल्पताम् कल्की विष्णुयशस्सुतः कलिकथा కాలుష్య కూలంకషః నిశేష క్షత కంటకే క్షితితలే ధారా జలౌఘైర్ధ్రువం ధర్మం కార్తయకం ప్రరోహయతి యత్ నిస్త్రింశ ధారాధరః ఇచ్ఛామీన విహార కచ్చప మహాపోత్రిన్యదృచ్ఛాహరే రక్షావామన రోష రామ కరుణాకాకుత్స్థహేలాహలిన్ క్రీడావల్లవ కల్కవాహన దశ కల్కిన్నితి ప్రత్యహం జల్పంతః పురుషా పునరంతి భువనం పుణ్యౌఘ పణ్యాపణాః విద్యోదన్వతి వెంకటేశ్వర కవౌ జాతం జగన్మంగళం దేవేశస్య దశావతార విషయం స్తోత్రం వివక్షేతయః వక్త్రేతస్య సరస్వతీ బహుముఖీ భక్తిః పరామానసే శుద్ధిః కాపితనౌ దిశాసు దశసు ఖ్యాతిః శుభా జృంభతే కవితార్కిక సింహాయ కళ్యాణ గుణశాలినే శ్రీమతే వెంకటేశాయ వేదాంత గురవే నమః.